अथ श्रीशरभेश्वरस्तोत्रम् श्रीशिव उवाच शृणुदेवि महागुह्यम् परमम् पुण्यवर्धनम् स्तोत्रम् श्रीशरभेशस्य वक्ष्यामि तव तत्त्वतः ऋषिन्यासादिकम् यत्तत् सर्वम् पूर्ववदाचरेति ध्यानभेदम् विशेषेण वक्ष्याम् अहमथो शिवे ज्वलनकुटिलकेशम् सूर्यचन्द्राग्नेत्रम् निशिते करनखाग्र सूतसिंहास्य देहम् शरभमथ मुनीन्द्रैः तूयमानम् सिताङ्गम् प्रणतभयविनाशम् भावये पक्षिराजम् देवादिदेवाय जगन्मयाय शिवाय नालीकनिबाननाय शर्वाय भीमाय शराधिपाय नमोऽस्तु तुभ्यम् शरभेश्वराय हराय भर्गाय हरिप्रियाय भवाय शान्ताय परात्पराय मृडाय रुद्राय विलोचनाय नमोऽस्तु तुभ्यम् शरभेश्वराय शीतांशुचूडाय दिगम्बराय सृष्टिस्थितिध्वंसनकारणाय जटाकलापाय जितेन्द्रियाय नमोऽस्तु तुभ्यम् शरभेश्वराय श्रीकालकण्ठाय भवान्तकाय कपालशूलाङ्ककराम्बुजाय भुजङ्गभूषाय पुरान्तकाय नमोऽस्तु तुभ्यम् शरभेश्वराय शमादिषट्काय यमान्तकाय यमादियोगाष्टकसिद्धिदाय उमाधिनाथाय पुरान्तकाय नमोऽस्तु तुभ्यम् शरभेश्वराय कालाय देवामृत कन्दराय कल्याणकौतूहलकारणाय स्थूलाय सूक्ष्माय सुरूपकाय नमोऽस्तु तुभ्यम् शरभेश्वराय घृणादिपाशाष्टकवर्जिताय नृसिंहदर्पाग्निविनाशकाय गुणादिहीनाय गुणत्रयाय नमोऽस्तु तुभ्यम् शरभेश्वराय पञ्चाननायाखिल भासकाय पञ्चाशदर्णाय पराक्षराय पञ्चाक्षरेशाय जगद्धिताय नमोऽस्तु तुभ्यम् शरभेश्वराय नीलकण्ठाय रुद्राय शिवाय शशिमौळिने भवाय भवनाशाय पक्षिराजाय ते नमः परात्पराय घोराय शम्भवे परमात्मने सर्वाय निर्मलाङ्गाय स्वाळुवशाय नमः गङ्गाधराय साम्बाय परमानन्दतेजसे सर्वेश्वराय शान्ताय शरभाय नमो नमः वरदाय वरङ्गाय वामदेवाय शूलिने गौरीशाय गिरीशाय गिरिजापतये नमः कनकजठरपीनोद्रक्तपानोन्मदेन सकलभुवनपीडा नारसिंहेन जाता झटिति सगुरुणं यः सर्वदेवेस्तुतः सः अहरदभयदायी साळुवः पक्षिराजः दंष्ट्रानखोग्र शरभस्य भग्नः चतुर्विधश्चाष्टपदश्चतुर्भुजः किरीटगङ्गेन्दुधरो नृसिंह क्षोभापहोऽस्मत् रिपुहास्तु शम्भुः शरभेशस्तवन्नित्यम् यः पठेत् शिवसन्निधौ इह भुक्त्वाखिलान् भोगान् अन्ते ब्रह्मपुरम् व्रजेते इति श्रीशरभकल्पे श्रीशरभेश्वरस्तोत्रम् सम्पूर्णम् ॐ।